ृकेतुरा विहता चाज्ञरारोदसी वृषभोरोरवीति इव स्थिलन्तामुदानलपामुपस्थे महिरो बाबद्धा मोदगर्भो वृषभक्रगुद्मानस्रेमावत्सश्मीवाम्बरावीत् स देवताद्युद्यतानि गृह्णन्तेषु प्रथमो जिगाति आयोर्धारम् विद्रोरधन्यध्वरेदधिरेशूरो अन्नाः अस्य पद्मन्नरो क्षीरस्व बुद्ध्यार्दस्य यो नौ धन्वो जुषन्त उषवोषो हि वासो अग्रमे ऋतुरम् यमयोरभवो विभावाय सप्तदधिके पदानि जनयन् मित्रम् तन्वे स्वायैश्चक्षुर्महृतस्य गोपा भुवो वरो नो यहृता जमेषि भुवो अपान्नपाज्जातवेदो भुवो दूतो यस्य हव्यम् विजोषः भुवो यज्ञस्य रजसश्च नेता यत्रा नियद्भ्यस्य च से शिवाभिः दिविमूर्धानम् लभिते स्वर्षाम् जिह्वामज्ञे चकृते हव्यवाहम् अस्य त्रितक्रतो नाभव्रे हन्द इच्छन्धीतिम् पितुरे वैः परस्य सृजस्य मानपित्रोरुपस्थे जामिब्रूपाण आयुधानि वेति सपित्र्याण्यायुधानि विद्वानिन्द्रे हृद आप्यो अभ्ययुध्यते शीर्षाणम् सप्तरस्मिन् जघन्वान् भाष्टस्य चिन्निस्य सृजेतुलोकाः भूरीन्द्र उदिलक्षम् समूजो वाभिनत्सत्त्वधर्मन्यमानम् भाष्टस्य चिद्विश्वरूपस्य गोनाः वाचक्राणस्त्रीणि शीर्षापरावर्गे